अस्यां कक्षायां परसवर्णसन्धिः पठ्यते। तत्र परसवर्णसन्धेः सूत्रमस्ति अनुस्वारस्य ययि परसवर्णः इति। अनुस्वारस्य ययि परसवर्णः इत्यत्र पदत्रयं विद्यते। अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य इत्यत्र षष्ठीविभक्तिः अस्ति। षष्ठीविभक्तेः षष्ठीस्थाने योग इति परिभाषया अनुस्वारस्य स्थाने इत्यर्थः भवति। ययि इत्यत्र प्रत्याहारेषु स्थितः वर्णः ययि। इदानीं ययि इत्यत्र के के वर्णाः अन्तर्भवन्ति? विद्या भगिनी कृपया वदतु। ययि इत्यत्र के के वर्णाः आगच्छन्ति? उमा भगिनी वदति वा? मीनाक्षी भगिनी वदति वा? ययि इत्यत्र के के वर्णाः भवन्ति? ययि इत्युक्ते अत्र सप्तमीविभक्तिः अस्ति। यै वर्णे परे यै नाम के के वर्णाः यै प्रत्याहारे अन्तर्भवन्ति इति वक्तव्यम्। तत्र माहेश्वरसूत्रेषु हयवरट् इत्यत्र हयवरट् सूत्रे यकारः अस्ति। हयवरट् इति सूत्रे यकारः अस्ति। ततः आरभ्य इत्युक्ते चतुर्थमाहेश्वरसूत्रादारभ्य ऐवुन् रुल्रक् एवं अयोच् हयवरट् पञ्चममाहेश्वरसूत्रात् आरभ्य कपै पर्यन्तं यै वर्णाः सन्ति। इदानीम् इदं सूत्रं किं वदति? अनुस्वारस्य इत्युक्ते अनुस्वारस्य स्थाने यै वर्णे परे एते वर्णे परे किं भवति? परसवर्णः भवति। परसवर्णः नाम किं? सावर्ण्यं केन अस्माभिः क्रियते? सवर्णस्य निर्णयः केन क्रियते? तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन सूत्रेण क्रियते। इदानीम् अत्र मकारः अस्ति। इदानीं शान्तः इति उदाहरणं स्वीकुर्मः। शान्तः इत्यत्र शां प्लस् तः। इदानीं अनुस्वारः अस्ति शान्तः इत्यत्र अनुस्वारः अस्ति। अनुस्वारस्य किं स्थानं? नासिकास्थानं। तकारः यै वर्णः अस्ति अनुस्वारस्य ययि परे परसवर्णः अस्ति। सो परस्य सवर्णः इत्युक्ते तवर्गस्य अनुस्वार सादृश्यम् आवश्यकम्। सो तवर्गे पञ्च अक्षराणि सन्ति त थ द द न। तत्र अनुनासिकस्थानं कस्य अस्ति? पञ्चमवर्णस्यैव अस्ति। अतः नकारस्यैव अस्ति। अतः नकारः एव आदेशः भवति। शान्तः इत्यत्र अस्ति। इदानीं पुनः तत् सूत्रार्थम् एकवारं पश्यामः। स्पष्टम् इति अस्ति। स्पष्टम् इत्युक्ते स्पष्टम् इति सूत्रार्थः नास्ति। तत्र कदाचित् एवम् अभवत्, एकं हास्य विनोदं वदामि तत्र तेनाली परीक्षा इति अस्ति तेनाली परीक्षा इति अस्ति तेनाली परीक्षा नाम तत्र शास्त्रपरीक्षा विद्यते तत्र किम् अभवत् तत्र व्याकरणशास्त्रे परीक्षा भवति तत्र परीक्षकाः तत्र आदौ तत्र लेखनपरीक्षा भवति तदनन्तरं मौखिकपरीक्षा भवति अद्यापि डिस्टर्बेन्स् अस्ति एव तदा किम् अभवत् तत्र अध्यापकः पृष्टवान् अनुस्वारस्य ययि परसवर्णः सिद्धान्तकौमुदी ग्रन्थानुसारेण विवरणं कुरुत इति उक्तवान् छात्रः सम्यक् पठितवान् बालमनोरमा व्याख्यानम् इत्यादिकं पठित्वा गतवान् सः किं कृतवान् छात्रः उक्तवान् तत्र प्रश्नः एवम् आसीत् कौमुदीग्रन्थ अनुसारेण अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य विवरणं क्रियताम् इति सः विद्यार्थी अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य स्थाने ययि परे परसवर्णः आदेशः भवति इति उक्तवान् तदा किम् अध्यापकः किम् अवदत् न समीचीनम् इति अध्यापकेन उक्तम् छात्रः तु सः चिन्तितवान् किं मया दोषः कृतः सम्यगेव उक्तं किल इति पुनः पुनः विचिन्त्य सूत्रार्थं वदतु इति ते पुनः उक्तवन्तः सः पुनः उक्तवान् अनुस्वारस्य स्थाने ययि परे परसवर्णः आदेशः भवति इति सूत्रार्थम् उक्तवान् ते पुनः उक्तवन्तः ग्रन्थानुसारेण सूत्रार्थं वदतु इति सः पुनः तदेव उक्तवान् अनुस्वारस्य ययि परे परसवर्णः आदेशः भवति इति पुनः तदेव उक्तवान् तदा ते उक्तवन्तः तत्र परीक्षकाः उक्तवन्तः असमीचीनम् इति तदा छात्रः वदति किम् असमीचीनं मया सम्यगेव प्रतिपाद्यते मया सम्यगेव उच्यते इति तदा अध्यापकः उक्तवन्तः मया उक्तं ग्रन्थानुसारेण अर्थः वक्तव्यः ग्रन्थे तु स्पष्टम् इति अस्ति त्वयापि स्पष्टम् इति वक्तव्यम् इति ते उक्तवन्तः तदा एषः उक्तवान् स्पष्टम् इत्युक्ते अस्माभिः स्पष्टीकरणं कर्तव्यम् इति सः स्पष्टीकरणं कृतवान् इत्युक्ते कदाचित् ते ग्रन्थानुसारी प्रश्नाः यदा भवन्ति तदा ग्रन्थे किम् अस्ति इति अस्माभिः ज्ञातव्यं ग्रन्थे तु सूत्रस्य अर्थः स्पष्टमित्येव अस्ति इति ज्ञातव्यम् अस्माभिः तदनन्तरम् अत्र स्पष्टम् इति अस्ति स्पष्टम् इत्यनेन ज्ञायते स्पष्टं नाम किं सूत्रे अनुस्वारस्य ई परसवर्णः इति सूत्रे पदत्रयं विद्यते तैः पदैः एव यदि सूत्रार्थः वक्तुं शक्यते तत्र परिभाषासूत्राणि पूर्वं यदि अस्माभिः पठितानि तर्हि स्पष्टमिति उच्यते दीक्षितैः इत्युक्ते तत्र विवरणस्य आवश्यकता नास्ति यतोहि षष्ठी इत्युक्ते षष्ठीस्थाने एव ययि इत्युक्ते ययि परे इति भवति परसवर्णः इत्यत्र प्रथमाभक्तिः भवति प्रथमाभक्तिः यत्र भवति तत्र विधेयः भवति एवम् अनुस्वारस्य ययि परसवर्णः इति अर्थम् इति सूत्रस्य अर्थविवरणं नैव कर्तव्यम् इति मत्वा तैः स्पष्टम् इति लिख्यते परीक्षायां यदा ते सूत्रार्थं पृच्छन्ति स्पष्टमिति इति विलिख्य अनन्तरं किम् अस्माभिः करणीयम् इत्युक्ते अनन्तरम् अस्माभिः सूत्रार्थः वक्तव्यः स्पष्टम् इत्युक्ते कः सूत्रार्थः इति अस्माभिः वक्तव्यं भवति एषः प्रसङ्गः वास्तविकतया अभवत् यद् मया उच्यते अयं प्रसङ्गः तद्वास्तविकतया तेनालीपरीक्षायाम् अभवत् कस्यचित् मम सुहृदः एव अभवत्। इदानीम् अनुस्वारस्य यै परसवर्णः एवं सूत्रार्थः यद्यपि स्पष्टम् इति अस्ति तथापि स्पष्टस्य स्पष्टीकरणार्थम् अस्माभिः उच्यते अनुस्वारस्य यै वर्णे परे परसवर्णः आदेशः भवति। परसवर्णः नाम परस्य सवर्णः, परस्य सवर्णः नाम तव शान्तः इति अस्मिन् उदाहरणे तवर्गस्य सावर्ण्यम् अस्माभिः अन्वेष्टव्यं। सावर्ण्यं नाम अनुस्वारसदृशं वर्णम् अस्माभिः अन्वेष्टव्यं। तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रेण अनुस्वारस्य स्थानं नासिका, तत्र तवर्गयोः नकारस्यैव नासिकास्थानं विद्यते, अतः नकारः एव आदेशः भवति इति स्पष्टं भवति। इदानीं तत्र अन्यानि उदाहरणानि अपि सन्ति, तदपि अस्माभिः सङ्गृहीतं। गुं प्लस् पितः गुम्पितः, अं प्लस् कितः अं प्लस् कितः अङ्कितः, अं प्लस् चितः अञ्चितः, कुं कुं प्लस् ठितः कुण्ठितः। अत्र द्वितीय उदाहरणे गुं प्लस् फितः इत्यत्र पवर्गस्य पञ्चमवर्णः स्वीक्रियते, पवर्गस्य पञ्चमवर्णः मकारः, अतः गुम्फितः। अङ्कितः इत्यत्रापि कवर्गस्य पञ्चमवर्णः नकारः स्वीक्रियते। एवं तत्र अञ्चितः इत्यत्रापि कुण्ठितः इत्यत्रापि। अग्रिमसूत्रं विद्यते वा पदान्तस्य वा पदान्तस्य इत्यस्य वा पदान्तस्य इत्यत्र पदद्वयं विद्यते। अष्टमाध्यायस्य चतुर्थपादस्य सूत्रमेतत्, तत्र एकोनषष्टितमं सूत्रम् एतत्। पदान्तस्य इत्यस्य षष्ठीभक्ति एकवचनमस्ति, विधिसूत्रमस्ति। अत्र किं भवति, अनुस्वारस्य यै परसवर्णः इति सूत्रात् परसवर्णः इति पदम् अनुवर्तते। एवं सति किं भवति इत्युक्ते पदान्तस्य अनुस्वारस्य स्थाने अनुस्वारस्य स्थाने विकल्पेन परसवर्णः आदेशः भवति इति उच्यते। यदि पदान्तं नाम सुप्तिगन्तं पदम् इति विद्यते, सुबन्तं तिगन्तं पदसंज्ञं भवति। इदानीं त्वङ्करोषि इति उदाहरणं दत्तं, त्वङ्करोषि इत्यत्र किं भवति इति पश्यामः। त्वङ्करोषि त्वं करोषि इति अस्ति, त्वम् इत्यस्य युष्मच्छब्दस्य प्रथमाविभक्ति एकवचनं रूपं, तत्र त्वम् इति पदं विद्यते, सुप्तिगन्तं पदम् इत्यनेन पदसंज्ञा अस्ति। पदसंज्ञायां सत्याम् इदानीम् अनुस्वारस्य यै परसवर्णः इति सूत्रं न प्रवर्तते, यतोहि वा पदान्तस्य इति सूत्रम् अग्रिमसूत्रं विद्यते। वा पदान्तस्य इत्यनेन अत्र ककारे तत्र यै वर्णः ककारः यै वर्णः अस्ति, यै वर्णे ककारे परे पदान्ते विद्यमानस्य अनुस्वारस्य परसवर्णः आदेशः भवति। इत्युक्ते ककारस्य परसवर्णः इत्युक्ते पञ्चमवर्णः क ख ग ग ङ नकारः आदेशः भवति नकारः आदेशः भवति परन्तु विकल्पेन भवति अत्र त्वङ्करोषि इति एकं रूपं भवति यदि वा पदान्तस्य इत्यनेन वा पदान्तस्य इत्यनेन पदान्ते अनुस्वारस्य स्थाने यदि परसवर्णः आदेशः न भवति तदा त्वङ्करोषि इत्येव प्रयोगः जायते तत्र संहिता न भवति इति अस्माभिः ज्ञातव्यं भवति एवं वा पदान्तस्य इति पदान्ते विद्यमानस्य अनुस्वारस्य वैकल्पिक आदेशं सूचयति तत्र वा पदान्तस्य इति सूत्रं वा इत्यनेन विकल्पः स्वीक्रियते वा अन्यतरस्याम् इत्यादिशब्दाः तत्र पूर्वाचार्याणां स्मरणमपि कदाचित् पाणिनिना क्रियते यदा पूर्वाचार्याणां स्मरणं भवति वा इति पदं सूत्रे अस्ति चेत् अन्यतरस्यामिति पदं सूत्रे अस्ति चेत् तदा वैकल्पिकप्रयोगः पाणिनिना सूच्यते इति अस्माभिः अवगन्तव्यं भवति मया उक्तं तत् तोर्लि इति सूत्रं मया पूर्वं त्यक्तं तोर्लि इति परसवर्णसम्बन्धिसूत्रं तत्तु पूर्वलघुकौमुद्यां तु पूर्वमेव दत्तं तत् सुजाता भगिनी तस्मिन् दिने पृष्टवती तत्र तोर्लि इति सूत्रं त्यक्तमिति इदानीम् अस्माभिः उच्यते तत् तोर्लि इति तोर्लि इति अग्रिमं सूत्रं तदपि परसवर्णः एव उच्यते तोर्लि नाम तत्र तवर्गस्य तोर्लि इत्यत्र सुलभमस्ति तोः लि इति अस्ति तोः नाम षष्ठी एकवचनं लि इत्यत्र लकारे परे तत्र लि सप्तमीविभक्तिः अस्ति तवर्गस्य लकारे परे परसवर्णः तल्लयः विद्वान् लिखति इति उदाहरणमस्ति तत्र उच्यते नस्य अनुनासिकः लः तद् किम् इति वयम् अग्रे पश्यामः इदानीं तवर् सूत्रार्थं कथमागच्छति इति पश्यामः अनुस्वारस्य ययि परसवर्णः इति सूत्रात् परसवर्णः इति अनुवर्तते इदानीम् एतदपि अष्टमाध्यायस्य नम्बर् तोर्लि इत्यस्य सङ्ख्या 60 अस्ति किल मया 59 इति लिखितं तद् दोषः अस्ति 60 अस्ति इदानीं वा पदान्तस्य तोर्लि इति अग्रिमं सूत्रं विद्यते तत्र परसवर्णः इति पदम् अनुवर्तते एवं तवर्गस्य स्थाने तोः इत्युक्ते तवर्गः तत्र कूचूटु तूपु इत्यत्र तु इति अस्ति किल तु नाम तवर्गः तवर्गस्य स्थाने इत्यत्र तोः इति तु शम्भुशब्दस्य गुरुशब्दस्य षष्टिविभक्तिः गुरोः तु शब्दस्य तोः एवं तोः इत्यत्र तवर्गस्य स्थाने इत्यर्थः तवर्गस्य स्थाने किं लकारः तत्र तद् लयः इति अस्ति तल्लयः तद् लयः लकारः एव आदेशः भवति इदानीं लकारः कथम् आगतः कृपया प्रतिपादयन्तु परसवर्णं प्रतिपादयन्तु परसवर्णसन्धिः परसवर्णः नाम अत्र स्थान प्रयत्नं स्वीकृत्य यः कोऽपि प्रतिपादयतु अस्तु स्थानसादृश्यमस्ति तवर्गे इदानीं तद् लयः इति स्वीकुर्मः इदानीं परसवर्णः करणीयः लकारे लकार तत्र एकः अंशः अस्माभिः वक्तव्यं भवति परसवर्णः नाम कस्य सावर्ण्यम् अस्माभिः वक्तव्यं तर्हि लकारस्य सवर्णः वर्णः अस्ति वा तत्र अस्माभिः किं स्मर्तव्यम् इत्युक्ते अनुदित सवर्णस्य चाप्रत्ययः इति सूत्रे मूले तत्र मूले लघुकौमुद्यां स्वीकुर्वन्तु तत्र अनुनासिक अननुनासिकभेदेन यवला द्विधा तेन अनुनासिकाः ते द्वयोः संज्ञा इदानीं लकारस्य सावर्ण्यं नाम लकारः एव परन्तु लकारस्य सावर्ण्यं सानुनासिकलकारः अस्ति अन्यत् किमपि सवर्णः नास्ति लकारस्य तदेव अस्माभिः ज्ञातव्यं तद् लयः सुजाता भगिनी ज्ञातं वा अस्तु तदेव वक्तव्यं लकारस्य सवर्णः नाम लकारः एव सानुनासिकलकारः सानुनासिकलकारः कदा उच्यते कदा आगच्छति निरनुनासिकलकारः कदा आगच्छति इति तत्र विषयविभागः इदानीं तद् लयः इत्यत्र तत्र तवर्गे दकारः अस्ति तस्य स्थानं तु नासिकास्थानं नास्ति अतः निरनुनासिकलकारः तत्र आदेशः भवति इदानीं विद्वान् लिखति इत्यत्र तवर्गीयवर्णः नकारः अस्ति परन्तु नकारस्य स्थाने नकारः अनुनासिकस्थानमस्ति इदानीम् अस्माकं लकारः सानुनासिकलकारः एव तत्र अधिकं सावर्ण्यं सानुनासिक लकारस्यैव अधिकं सावर्ण्यं विद्यते कस्य अपेक्षया निरनुनासिकलकारस्य अपेक्षया अतः अस्माभिः सानुनासिकलकारस्य एव आदेशः क्रियते विद्वान् लिखति इत्यत्र विद्वान् लिखति इत्येव वक्तव्यं तथा एव प्रोनौन्सियेशन् इत्युक्ते उच्चारणमपि कर्तव्यं तथैव लेखनं कर्तव्यं विद्वान् लिखति इत्यत्र विद्वान् लिखति तत्र किञ्चित् नासिकासहितम् उच्चारणं कर्तव्यम् सानुनासिकलकारस्यैव प्रयोगः तत्र एवमेव तत्र इदानीं नास्ति किमर्थम् इत्युक्ते दकारस्य नासिकास्थानं नास्ति किल परसवर्णः आदेशः एतदेव अवगन्तव्यम् अन्यत् अन्यः एकः विषयः अस्ति इदानीं तवर्गे परे वा अस्तु पुल्लिङ्गः अस्तु व्यञ्जनसन्धेः अनन्तरं तत्र शुद्धिकौमुदी इति एकं पुस्तकं विद्यते तत्र जनार्दन हेगडे महोदयैः लिखितं तत् पुस्तकं संस्कृतभारत्या प्रकाशितं सर्वत्र अस्माभिः ये ये दोषाः क्रियन्ते तत्सर्वम् एकत्र तत्र परिगणनं कृतमस्ति सङ्गृह्य अत्र निर्दिष्टं विद्यते तत् अवश्यम् अस्माभिः पठनीयम् अभ्यासे तत्र पठनेन किमपि न भवति पठनानन्तरं तस्य इम्प्लिमेंटेशन इत्युक्ते तस्य प्रयोगः तादृश करणीयः इत्यपि चिन्तनीयं। यद्यपि व्याकरणं बहु वयं व्याकरणस्य अध्ययनं कुर्मः तथापि दोषाः तु तादृशाः एव भवन्ति। तत्र एतद्विषये तत्र सानुनासिकलकारस्य विषये पुल्लिङ्गः इति लेखनसमये कः साधु रूपम् इत्यादि विषयाः सम्यक् प्रतिपादितं विद्यते तस्मिन् पुस्तके। तस्य पुस्तकस्य तृतीयसंस्करणम् आगतम् अस्ति विद्यते। कृपया तत् यस्य कस्यापि तद् नास्ति चेत् कृपया तत् स्वीकृत्य शुद्धिकौमुदी इति पुस्तकं स्वीकृत्य कृपया अभ्यासं कुर्वन्तु। यतोहि दट् इस् अ वेरि यूस्फुल् बुक् अण्ड् वि शुड् प्राक् अट्लीस्ट् ईच् सेक्षन् शुद्धिकौमुदी संस्कृतभारती पब्लिकेशन् जनार्दन हेगडे बहु सम्यक्। शब्दाः श्रूयते चेत् मया किं करणीयम् इत्युक्ते केवलं म्यूटाल् कर्तव्यं। सम्बडि स्टाक् पोङ्गल् दट् बेक्ग्रौण्ड् नाय्स् टू मच्। एकनिमिषम् इदानीं सम्यक् अस्ति वा? विद्वान् लिखति इति उदाहरणम् इदानीं समाप्तम्, अग्रे गच्छामः। कोऽपि महादेवन् महोदय प्रश्नं पृच्छति वा? तत्र पूर्वलकारः अननुस् पूर्वलकारः अनुनासिकलकारः, यतोहि नकारस्य स्थाने देर् आर् टु लकारास्। लेखनसमये अस्माकं क्लेशः भवति वेर् टु पुट् दट् अनुनासिक सिम्बल् इति क्लेशः भवति। एक्साक्ट्लि पूर्वलकारः एव अनुनासिकलकारः, यतोहि परलकारः लिखति इत्यस्य लकारः। पूर्वस्यैव आदेशः किल, विद्वान् लिखति इत्यत्र पूर्वस्यैव आदेशः। एवं मोराजि समक्वौ इति अग्रिमसूत्रं विद्यते। अत्र मूले किम् अस्ति पश्यामः, मोराजिसमक्को इति सूत्रम् अष्टमाध्यायस्य तृतीयपादस्य सूत्रं, न तु चतुर्थपादस्य, तृतीयपादस्य सूत्रं। तृतीयपादे पञ्चविंशतितमं सूत्रं। किमर्थं तत्र स्थापितमिति क्विवन्तम् अवश्यम्। अस्तु तत्र मोराजिसमक्कौ इत्यत्र चत्वारि पदानि सन्ति। कस्य कस्य भवति इत्येव न ज्ञायते। मोराजि समः कौ इत्यत्र महाराजि समः कौ इति चत्वारि पदानि विद्यन्ते। महा इत्यत्र महा इत्यत्र प्रथमाविभक्ति एकवचनम् अस्ति। राजि इत्यत्र राज धातौ परे इति अर्थः अस्माभिः स्वीकरणीयं भवति। समः समः इत्यत्र सम इत्यस्य सम सम इति पदं विद्यते तत्र सम संस्कर्ता सम संस्कर्ता संभाषणं इत्यादित्र सम इति अस्ति किल तत्र सम समः नाम सम षष्ठी षष्ठीभक्तिः सम इत्यस्य षष्ठीभक्तिः समः। क्वौ क्वौ इत्युक्ते क्विप् प्रत्ययः क्विप् प्रत्ययस्य षष्ठीभक्तिः। इदानीं किम् उच्यते इति वयं पश्यामः अत्र तत्र क्विप् इति एकः प्रत्ययः विद्यते। कृपया सावधानेन शृण्वन्तु यतोहि क्विप् प्रत्ययः अस्माभिः न अधीतः। क्विप् प्रत्ययस्य विषये अस्माकं पूर्वज्ञानं न भवति अतः क्वौ नाम क्विप् प्रत्ययः क्वौ इत्यस्य क्विप् प्रत्यये परे इति अस्ति। इदानीं किम् अत्र उच्यते इत्युक्ते क्विप् नाम प्रत्ययः तत्र धातोः अपि उच्यते प्रातिपदिकानामपि उच्यते। क्विप् एकः एव प्रत्ययः अस्ति यः प्रत्ययः धातोः अपि युज्यते प्रातिपदिकानामपि युज्यते सः विशेषः प्रत्ययः क्विप् प्रत्ययः। तत्र क्विप् प्रत्ययः क्वौ नाम क्वि यदि राज धातुः अत्र क्विबन्ते राजतौ परे इत्युक्ते राज धातुः राजति इति भवति राजते इति भवति उभयपदी धातुः सः राजति राजते इति भवति। राजति इत्युक्ते राजृ दीप्तौ इति धातुः दीप्तौ नाम कान्ति तत्र राजते इत्युक्ते शोभते इत्यर्थः। तत्र राज धातौ परे यदि सम उपसर्गसहित सम्पदस्य अनन्तरं राजधातुः अस्ति क्विबन्तः अस्ति राजधातुः क्विबन्तः राजधातुः अस्ति राजधातुः भवेत् सः क्विबन्तः भवेत् क्विब्युक्तः भवेत्। तादृशक्विब्युक्त राजधातोः समः मस्य सम इत्यस्य मकारस्य महा एव स्यात् मकारस्य मकारः एव भवति न तु अनुस्वारः इति अत्र सूत्रार्थः उक्तः। किञ्चित् सावधानतया पश्यन्तु अत्र उदाहरणमस्ति सम्राट् इति। इदानीं राजधातुः राजधातोः राट् इति शब्दः अस्ति राट् राजौ राजः तत्र राट् शब्दः राजधातोः क्विप्रत्यये कृते तत्र राट् राजधातोः क्विप्रत्यये कृते राट् इति भवति। एवं राट् इति शब्दः क्विबन्तशब्दः राजधातुः एव तस्य मूलम्। इदानीं राजधातुः अस्ति क्विबन्तम् अस्ति राट् इति शब्दः अस्ति इदानीं सम् इत्यपि अस्ति पूर्वे पूर्वपदे सम् इत्यपि अस्ति। इदानीं सम् इत्यत्र मकारः अस्ति। मकारस्य मस्य वस्तुतः यदि इदं सूत्रं न स्यात् तर्हि किं स्यात् इत्युक्ते, किं स्यात् इत्युक्ते मोनुस्वारः, तत्र हल् अस्ति, रकारः, रेफः रेफवर्णः अस्ति, अतः हल् अस्ति, हलि परे मकारस्य अनुस्वारः सम्राट् इति भवेत्। मोनुस्वारस्य मोनुस्वारः इत्यनेन सूत्रेण प्राप्त अनुस्वारादेशम् इमं सूत्रं बाधते इत्युक्ते इदं सूत्रं मोनुस्वारः इति सूत्रस्य अपवादः। अतः मोनुस्वारः आगच्छति, अहं मकारस्य अनुस्वारं करोमि सम्राट् इत्यत्र इति आगच्छति, तस् मम कार्यं विद्यते इति स मोनुस्वारः आगच्छति। तदा झटिति मोराजि समक्कौ इति सूत्रम् आगच्छति, उच्यते भो भवान् तु सर्वत्र यत्र यत्र हल् अस्ति सर्वत्र भवतः कार्यम् अस्ति, मम कार्यं तु अत्र केवलम् अस्ति, अतः मम कार्यम् अहमेव अत्र अहमेव अत्र कार्यं करोमि। इदानीम् एकं विषयम् अत्र अद्य किञ्चित् स्पष्टीकर्तुम् इच्छामि। अपवादसूत्रं नाम किं? वाट् इस् द कान्सेप्ट् आफ् एन् अपवादसूत्र? देर् आर् मेनि कान्सेप्ट्स्। वन् सच् कान्सेप्ट् ईस् निरवकाशः एव अपवादस्य बीजं, निरवकाशः। इदानीं एकं लौकिक उदाहरणं पश्यामः। इदानीं संस्कृतभारत्या एकं संस्कृतसम्मेलनम् आयोज्यते इति चिन्तयामः। संस्कृतसम्मेलने सर्वेषां कार्यमस्ति, महादेवन् महोदयः अस्ति, सुजाता भगिनी अस्ति, अनुराधा भगिनी अस्ति, सर्वेषां कार्यं तत्र तत्र ज्येष्ठैः कार्यं दत्तं, भवन्तः एवं कुर्वन्तु, भवन्तः एतत् कुर्वन्तु इति। तत्र विशेषतया महादेवन् महोदयस्य भोजनव्यवस्था, किञ्चित् भोजनव्यवस्थायाः सूपर्विजन् इत्यादि कार्यं, भोजनव्यवस्थां पश्यन्तु इति उक्तं। सुजाता भगिन्यै किमुक्तं, भवती तत्र आहत्य भोजनं, तत्र मुख्य अतिथीनां कार्यं सर्वं पश्यन्तु इति ओवराल् इन्चार्ज् स्थापितम्। इदानीं सुजाता भगिनी किं करोति, यदा भोजनपरिवेषणसमयः आगच्छति तदा भोजनपरिवेषण तत्र स्थानम् आगत्य तत्र सुजाता भगिनी वदति, अहं भोजनं परिवेषयामि, भोजनव्यवस्थां पश्यामि इति सा वदति। तदा महादेवन् महोदयः वदति, मम कार्यं केवलं भोजनव्यवस्था दर्शनम्, अत्र भवत्याः कार्यं किं किम् अस्ति, भवत्याः कार्यं तु अतिथीनां सत्कारः, स्वागतम् इत्यादिकं सर्वम् अस्ति। परन्तु पुनः सुजाता भगिनी वदति, भोजनमपि मम कार्यमस्ति। तदा महादेवन् महोदयः वदति, तदा महादेवन् महोदयः वदति, अहं तु भोजनार्थमेव भोजनव्यवस्थां द्रष्टुमेव अस्मि, यदि भोजनव्यवस्था मम हस्तात् निर्गच्छति तर्हि अहं व्यर्थः, मम कार्यं किमपि नास्ति, मम वैयर्थ्यं भवति, मम किमपि कार्यं न भवति। अतः अपवादरूपेण मम अवकाशः एव नास्ति, निरवकाशः एव अपवादस्य बीजं, मम अवकाशः एव न विद्यते, भवत्याः तु बहु कार्याणि सन्ति, भवान् अन्यत्र भवती अन्यत्र गच्छतु, तत्र अतिथिसत्कारं पश्यतु, किमपि धनसङ्ग्रहं पश्यतु, अन्यत्र गच्छतु इति महादेवन् महोदयः उक्त्वा सुजाता भगिनीं तस्मात् प्रदेशात् प्रेषयति। एतदेव अपवादसूत्रम् इति उच्यते। सम्यक् ज्ञातं वा? इदानीं मोराजिसमक्कौ इति सूत्रं किं करोति, तत्र मोनुस्वारः इति उत्सर्गसूत्रमस्ति, तत् तस्य कार्यं सर्वत्र यत्र यत्र हल् विद्यते तत्र तत्र मकारस्य स्थाने मोनुस्वारः गत्वा किं करोति, मकारस्य अनुस्वारं करोति। परन्तु मोराजि समक्को इत्यत्र मोराजि समक्को इति सूत्रं किं तत्र सम मोनुस्वार सूत्रं दृष्ट्वा भवतः कार्यम् अन्यत्र अस्ति भवान् कृपया अन्यत्र गच्छतु मम कार्यं तु अत्रैव अस्ति अतः अहम् आई एम मेड ओनली फॉर दिस मोराजि समक्को इति सूत्रं किमर्थं प्रणीतम् इत्युक्ते पाणिनिना केवलं सम सम समन सम इति पदस्य अनन्तरं राजशब्दः यदा भवति तदा एव तस्य कार्यं नो चेत् तस्य कार्यमेव नास्ति। एवं मोराजि समक्को इति सूत्रस्य वैयर्थ्यं भवति यदि मोनुस्वारः अपि तत्र प्रविश्य कार्यं करोति चेत् वैयर्थ्य तत्र ऋषीणां वचनं कदाचिदपि वैयर्थ्यं न सम्भवितुम् अर्हति तत्र तेषां उक्तिः वचनं सर्वं तत्र प्रयोजनम् अस्ति एव अतः एतस्य यदि मोनुस्वारः अत्र प्रविशति तर्हि मोराजि समक्को इति सूत्रस्य अवकाशः एव न लभ्यते यतोहि सर्वत्र गन्तुं न शक्यते अतः निरवकाशः तत्र मोनुस् निरवकाशः भूत्वा मोराजि समक्को इति सूत्रं मोनुस्वारः इति सूत्रस्य अपवादरूपेण तिष्ठति मोनुस्वारं तत्र तस्मात् प्रदेशात् वारयति। एवं दिस् इस् द कान्सेप्ट् आफ् एन् अपवादसूत्र सम्यक् अवगतं वा महादेव महोदय का पृच्छति प्रश्न क्विप् प्रत्ययः क्विप् इति एकः प्रत्ययः अस्ति तद् विशेषप्रत्ययः विद्यते किमर्थं वा तत् कृदन्तप्रत्ययः तत् कृदन्तप्रत्ययः तत्र धातोः सः विशेषः कृदन्ताः केवलं धातोः युज्यन्ते कृत् प्रत्ययः परन्तु एषः विशेषः कृत् प्रत्ययः क्विप् प्रातिपदिकादपि युज्यते धातोः अपि युज्यते तद् हलन्तप्रकरणे हलन्तपुल्लिङ्गशब्दानां प्रकरणे क्विप् विषये वयं जानीमः तत्रैव अस्ति क्विप् विषयः सर्वं क्विप् सूत्राणि सर्वं तत्रैव अस्ति अन्यत् सर्वं कृदन्तप्रकरणे अस्ति अवश्यं पठामः। अस्माभिः इदानीन्तनविषय अवगमनार्थं क्विप् इति एकः प्रत्ययः कृत् प्रत्ययः धातोः युज्यते अत्र राज् धातोः क्विप् प्रत्यये कृते राट् इति रूपं प्राप्नोति एवं राट् इति शब्दः क्विबन्तशब्दः क्विबन्त सं पदस्य राट् शब्दे परे मकारस्य मोनुस्वारः इति मकारस्य अनुस्वारे प्राप्ते मोराजि समक्वौ इति सूत्रम् आगत्य अनुस्वारस्य बाधं कृत्वा मकारस्य मकारः एव आदेशः इति कृत्वा मकारः एव स्थाप्यते एवं सम्राट् इति रूपसिद्धिः भवति सर्वं ज्ञातं वा हा तत्र विशेष अत्रैव सन्दर्भः आगतं यतोहि अपवादसूत्रस्य स्वरूपम् अस्माभिः इदानीम् अधीतं तत् अपवादं कुत्र भवति यदा निरवकाशः एव अपवादस्य बीजं तद् मया स्लैड् मध्ये न लिखितं कृपया तद् लिखित्वा स्थापयन्तु निरवकाशः एव अपवादस्य बीजम् इति वाक्यं निरवकाशः एव अपवादस्य बीजम् अग्रिमसूत्रं प्रति गच्छामः वा कोऽपि संशयः अस्ति चेत् इदानीं अवश्यं पृच्छन्तु राट्र एवमेव अस्ति तत्र तस्य कारणम् अन्यत् अस्ति राट् राजौ राजः सम्राट् सम्राजौ सम्राजः तद् राट् राजौ राजः इत्येव अस्ति भवत्या यदुक्तं तदेव सत्यं समीचीनतया उक्तं राट् प्रथमाविभक्ति एकवचनरूपे एव टकारः विद्यते अन्यत्र सर्वत्र जकारः एव अस्ति यदि संशयः नास्ति चेत् अग्रे गच्छामः हेमपरेवा इति सूत्रं विद्यते तत्र एतदपि मकारे तत्र मकारान्त मकारस्य स्थाने हकारे परे तत्र वा विकल्पेन अनुस्वारः भवति इति सूत्रस्य अर्थः मपरे हे मपरे वा हे इत्युक्ते तत्र मकारे परे मपरे हे इति विशेषणं विशेष्यविशेषणभावः अस्ति मपरे हे मपरे हकारे परे मस्य मस्य इति कथम् आगतं मोराजिसमक्कौ इति सूत्र मोनुस्वारः इति सूत्रात् महा इति स्वीक्रियते मोराजिसमक्कौ इति सूत्रात् अन्यत् महा स्वीक्रियते मस्य मोवा मस्य महा एव भवति तत्र किं मलयति एकनिमिषं तत् समीकरोमि किं ह्यल मलयति वा ओके ओके किं किं मलयति अनन्तरं किं ह्यलयति इति किं मलयति इति उदाहरणं दत्तमत्र अत्र वैकल्पिक अपवादः अपवादः अस्ति परन्तु विकल्पेन अस्ति ह्मल धातोः किम् अर्थः विद्यते ह्मलचलने इति धातुः अस्ति ह्मलचलने इति धातु अर्थः भ्वादिगणधातुः एषः तत्र हेतुमण्णिच् इति अस्ति किं भवति ह्मलचलने इत्यस्मात् धातोः ह्मलयति इति रूपं भवति इदानीं किं ह्मलयति किं सः मलयति इत्यत्र किं सः चलति इति प्रश्नः आगच्छति स एव अर्थः किं मलयति इत्यत्र मकारः अस्ति हकारः अस्ति हकारे परे अत्र मोनुस्वारः इति सूत्रेण अनुस्वारः यदि भवति चेत् किं मलयति इति रूपं भवति अनुस्वाराभावे किं ह्मलयति इति रूपं सिद्ध्यति एवमेव कथं ह्मलयति कथं ह्मलयति इति रूपद्वयम् अपि भवति अत्र मकार महा इत्युक्ते षष्ठी विभक्तिः मपरे हे इति विशेष्यविशेषभावः अस्ति इति मपरे हकारे परे मस्य महा भवति मस्य महा एव भवति इति अस्माभिः ज्ञातव्यम् यवलपरे यवलावा इति अग्रिमं तत्र तस्मिन्नेव सूत्रे यवलपरे यवलावा इति वार्तिकं विद्यते. मूलं पश्यन्तु कृपया लघुकौमुद्यां. किं ह्मलयति किं ह्मलयति इति उदाहरणं दत्वा यवलपरे यवलावा इति लिखितं. तत्र वार्तिकम् इति लेखनीयमासीत्, तत् न लिखितं. यवलपरे यवलावा इति वार्तिकम् अस्ति. यवलपरे यवलावा इत्यत्र पदत्रयं विद्यते. यवलपरे यवला वा इति अत्र मोनुस्वारः इति सूत्रात् अनुस्वारः इति पदम् अनुवर्तते. हेमपरे इति सूत्रात् हे इति पदम् अनुवर्तते. एवं मकारस्य स्थाने यदि यकारः भवति यवलपरे यकारः वकारः लकारः, यदि वकारः यकारः लकारः भवति चेत् तदा किं भवति वा विकल्पेन अनुस्वारसहितरूपम् एकं भवति. अनुस्वाररहितं रूपम् इत्युक्ते अनुनासिकसहितं रूपम् एकं भवति. कथम् इति एकवारं पश्यामः. इदानीम् एकम् उदाहरणं पश्यामः. तत्र प्रथमं रूपं मूले किम् अस्ति किं ह्यः सी. तत्र इदानीम् अत्र स्क्रीन् मध्ये पश्यन्तु. अहमत्र रक्तवर्णं करोमि. किं ह्यः इति रक्तवर्णं कृतवान्. तद् रक्तवर्णः यत्र अस्ति तद् अर्धयकारः इति स्वीकुर्वन्तु. तद् टैपिङ्ग् मध्ये कथं टैप् करणीयम् इति अहं न जानामि, अतः तद्विषये. यकारं टैप् क्रियते चेत् उपरि अनुनासिका न गच्छति. यदि अर्धयकारः उट्टङ्कनं क्रियते कम्प्यूटर् मध्ये तदुपरि अर्ध तत् अनुनासिका नागच्छति. तत् बरः न भाषायमी मध्ये नागच्छति. अतः तत् क्लेशः अनुभूतः मया. अतः तत्र इदानीं रक्तवर्णेन तत्र स्थापितम्. इदानीं किं ह्यः इत्यत्र किं ह्यः इति रूपं वस्तुतः किं ह्यः मकारसहितं किं ह्यः इति रूपं विद्यते. इदानीं तस्य संहिता भूत्वा किं भवति इत्युक्ते मोनुस्वारः इति प्रथमं मकारस्य स्थाने अनुस्वारादेशः प्रथमम् आगच्छति. तस्य अपवादत्वेन इदं वार्तिकम् आगच्छति यवलपरे यवला वा इति. तदा इदानीं यकारः अस्ति हकारः अपि अस्ति, मकारस्य स्थाने यकारः आदेशः भवति. मकारस्य स्थाने यकारः. इदानीं यकारः इत्युक्ते स्थानेन्तरतमः इति परिभाषया यकारः सानुनासिकनिरनुनासिक इति भेदद्वयं विद्यते. मकारस्य स्थानम् अनुनासिकास्थानम्. अतः यकारः अपि सानुनासिकयकारः एव आगच्छति. एवं किं ह्यः किं ह्यः इति अस्य उच्चारणं क्रियते. यदि मोनुस्वारः इति रूपं भवति, एतत् यवलपरे यवला वा इति उक्तम्. अतः यदि मोनुस्वारः आगच्छति चेत् अनुस्वारसहितं किं ह्यः इति अनुस्वारसहितं रूपम् आगच्छति. तदा अनुनासिक आदेशः न भवति इति अस्माभिः स्मर्तव्यम्. अवगतं वा? किं ह्यः इति एकं रूपं, किं ह्यः इति रूपद्वयं. रूपद्वयं किमर्थं विद्यते इत्युक्ते वा इति स्वीकारेण. वार्तिके वा इति अस्ति. तत्र वा इत्यस्य वैकल्पिकं तु मोनुस्वारः इत्यस्य वैकल्पिकं. यदि मोनुस्वारः इति सूत्रं भवति तर्हि किं ह्यः इति अनुस्वारसहितम् एकं रूपं. मोनुस्वारः इति नागच्छति तदा यवलपरे यवला वा इति आगत्य मकारस्य स्थाने यकारः भवति. यवलपरे यवला वा इति सूत्रमागत्य कार्यं करोति. एवम् इति सूत्रं न वार्तिकमागत्य कार्यं करोति. एवमेव अग्रिम उदाहरणं विद्यते. किं क्यू ह्वयः किम फोयः इत्यत्र किम किम फलयति अत्रापि वकारः अर्धवकारः किम फलयति इत्यत्र मोनुस्वारेण मकारे प्राप्ते किम फलयति इति मकारः यदि न प्राप्नोति वकारस्य सारुनासिक वकारः भवति किम फलयति तत्र उच्चारणं किम फलयति इति कर्तव्यं किम फलयति एवमेव किल किल किं किम ह्लादयति इत्यत्र तत्रापि किल ह्लादयति इति भवति एतद् विशेषः विशेषेण स्मर्तव्यम् अस्माभिः तत्र मकारस्य स्थाने यवल आदेशः भवन्ति एतत्तु सर्वत्र न भवत् इत्युक्ते अस्माभिः दोषः तत्र यदि सम्यक् न ज्ञायते एतद् वार्तिकं तत्र दोषः कदाचित् स्यात् किं ह्लादयति इति भवति एवं लकारादेशः अपि सानुनासिकलकारः आगच्छति यदि मोनुस्वारः इति सूत्रम् आगच्छति तर्हि निरनुनासिकलकारः मोनुस्वारः यदि भवति लकारः एव नागच्छति तर्हि किं ह्लादयति इत्येव भवति इदानीम् अवगतं वा सर्वैः अस्तु स तद् किमपि क्लेशः नास्ति समयः अभवत् अतः नपरे इति अग्रिमसूत्रं किम् अस्ति नपरेणः ओ अस्तु समानमेव अस्ति नपरेणः तदपि समानमेव न यदि नपरे हकारे मस्य नः एव भवति वा भवति किं हुनुते किं हुनुते इत्येव भवति अग्रिमसूत्रं परिभाषासूत्रं विद्यते तत् किञ्चित् कार्यमस्ति तत्र अग्रिमकक्षायां पश्यामः तत्र शुक्रवासरे कदाचित् कक्षा न भविष्यति यतोहि तस्मिन् दिने तत्र अत्र बेङ्गळूरुनगरे तत् ज्ञायते वा भवद्भिः तत्र संस्कृतभारत्याः कार्यशाला तत्र वचोविच्छित्तयः इति इडियोमेटिक् एक्स्प्रेशन्स् इन् सान्स्क्रिट् इति शोधकार्यशाला प्रचलति तत्र बेङ्गळूरुनगरे अक्षरे प्रचलति ये अत्र आगन्तुम् इच्छन्ति कृपया आगच्छन्तु तत्र ज्येष्ठाः विद्वांसः तत्र प्रस्तुतिं कुर्वन्ति अवश्यं श्रोतव्यं तत्र दिनत्रयात्मककार्यशाला विद्यते अहं प्रेषयामि यदि आवश्यकं चेत् कार्यशालायाः स्वरूपं सर्वं प्रेषयामि अद्यैव यदि ट्रैन् मध्ये टिकेट् लभ्यते चेत् आगच्छन्तु दिनत्रयम् अत्र भवन्तु प्रायः संस्कृतभारतीकार्यकर्तारः ये सन्ति ते जानन्ति प्रायः वर्क्शाप् विषये तत्र चेन्नैनगरे सर्वे जानन्ति वा अस्तु अस्तु यदि शक्यते चेत् तत् बहु सम्यक् अस्ति यतः यतोहि ज्येष्ठविद्वांसः ज्येष्ठाः विद्वांसः एव विषयप्रस्तुतिं कुर्वन्ति किञ्चित् अधिकं ज्ञातुं शक्यते अतः तत्र केचन विद्वांसः अस्माकं गृहे उष्यन्ते अतः तस्मिन् दिने प्रायः कक्षा न भवति शुक्रवासरे वयम् अग्रिमबुधवासरे पश्यामः इदानीं हल्सन्धिः किञ्चित् शीघ्रं गच्छति वयं शीघ्रं समापयामः पञ्चसन्धिप्रकरणं तदनन्तरं बहु इण्ट्रेस्टिङ्ग् पोर्शन् अस्ति शब्दानां विषये तदपि पठामः यदि पञ्चसन्धि अनन्तरं वयं कक्षात्रयं कुर्मः सप्ताहे पञ्चसन्धि इत्युक्ते विसर्गसन्धि अनन्तरं कक्षात्रयं यदि सर्वे अङ्गि ओ एवं वा पञ्चसन्धिप्रकरणम् इति उच्यते चेत् तत्र सिद्धान्तकौमुद्यां प्रकृतिभावः स्वादिसन्धिः इति सन्धिद्वयमपि विद्यते अतः न पठितम् इदानीन्तनपर्यन्तं पठि प्रकृतिभावः पठितः प्रकृतिभावः पठितः सिद्धान्तकौमुद्यां तु विशेषप्रकरणमस्ति तस्य. तदनन्तरम् इदानीम् अन्यत् किम् अस्ति, स्वादिसन्धि. तत्र स्वादिसन्धि नाम सुओजस् इति एकविंशतिः प्रत्ययाः सन्ति. तत्र शब्दप्रकरणे ये ये सन्धयः भवन्ति ते स्वादिसन्धिः, सु आदिसन्धिः, स्वादिसन्धिः इति उच्यते. तदपि यत्र यत्र आवश्यकं तद अत्रापि दत्तं, परन्तु स्वादिसन्धि इति विशेषतया न दत्तं, परन्तु स्वादिसन्धिसम्बन्धिसूत्राणाम् अध्ययनम् अस्माभिः क्रियते. तद् यदा आगच्छति तदा अवश्यं वदामि स्वादिसन्धिसूत्रम् इति अहं वदामि. अस्तु, शुभरात्रिः. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनेय नमः. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्.